ॐ युधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नामानि च महात्मनः त्रिषु लोकेषु धान्यस्य विख्यातानि द्विजोत्तमा श्रीवैशम्पायन उवाच इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ उवाच भगवांस्तत्र मार्कण्डेयो महातपाः आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः मयूरकेतुर्धर्मात्मा भूतेशो महिषार्धनः कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः शिशुशीघ्रश्रुजिश्चण्डः दीप्तवर्णशुभाननः अमोघस्त्वनघोरौद्रः प्रियश्चन्द्राननस्तथा दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः षष्ठी प्रियश्च धर्मात्मा पवित्रो मातृवत्सलः कन्याभर्ता विभक्तश्च स्वाहेयोरेवतीसुतः प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः सुव्रतो ललितश्चैव बालक्रीडनकप्रियः खचारी ब्रह्मचारी च शूरः शरवणोद्भवः विश्वामित्रप्रियश्चैव प्रियः प्रियकृदेव तु नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् स्वर्गम् कीर्तिम् धनश्चैव स लभेन्नात्र संशयः।